पक्षं पञ्चविधं पयो दधियुतं रम्भाफलं पानकम् शाकानां यतं जलं रुचिकरं कर्पूरखण्डोज्ज्वलम् ताम्बूलं मनसा मया विरचितं भक्त्या प्रभो स्वीकुरु छत्रं चामरयोर्युगं व्यजनकं चादर्शकं निर्मलम् वीणाभेरिमृदङ्गकोहलकलाभीतं च नृत्यं तथा साष्टाङ्गं प्रणतिः स्तुतिर्बहुविधा एतत्समस्तं मया संकल्पेन समर्पितं तव विभो पूजां ग्रहाण प्रभो आत्मा त्वं गिरिजा मते सहचराः प्राणाः शरीरं गृहम् पूजाते विषयोपभोगरचना निद्रा समाधिस्थितिः सञ्चारः पतियोः पृथक्क्षणविधि स्तोत्राणि सर्वागिरो यत्तत्कर्म करोमि तत् अखिलं शम्भो तवाराधनम् करचरणकृतं वा